एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्रिणा बालेन्द्र शाहेन ह्य सायम् पवित्र धार्मिक स्थलस्य मुक्तिनाथस्य दर्शनम् विहितम् वर्तते। प्रधानमन्त्री शाह ह्य सायम् मुक्तिनाथ भगवतो दर्शनम् विहितवान् इति मुस्ताङ जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। परह्यः काष्ठमण्डपात् नैज भ्रमणाय प्रस्थितवान् प्रधानमन्त्री शाह पूर्वे दिवा त्रिवादने मुस्ताङ जनपदस्य जोम सोम स्थानम् प्राप्तवान् आसीत्। प्रधानमन्त्री शाह मुक्तिनाथ मन्दिरस्य अर्चकाद कृष्णप्रसाद सुवेदिनो हस्तात् टीका प्रसादम् गृहीतवान् वर्तते। प्रधानमन्त्री शाह मुस्ताङ जनपदस्य घरपझोङ पालिकायाः तृतीय वडा क्षेत्रस्य पुथाङ विमानस्थलस्य ओम सोहोम इत्याख्ये अतिथिसदने स्थितो वर्तते। रासपा नाम्नो राष्ट्रिय स्वतन्त्र दलेन केन्द्रीय सदस्यानाम् कृते आयोजिता नीतिः संगठनम् नेतृत्वम् चेति विषयिणी द्विदिवसात्मिका कार्यशाला काष्ठमण्डपे प्रारब्धा वर्तते। रासपा कार्यशाला नीतिः संगठनम् नेतृत्वम् च प्रथम श्रृंखला चेति नाम्ना प्रारब्धायाम् कार्यशालायाम् दलस्य नीतेः संगठनस्य सुदृढीकरणस्य नेतृत्वक्षमता विकासस्य च विषयेषु विमर्शनम् जायमानमस्तीति रासपा दलस्य संगठन विभाग प्रमुख प्रमोद नेउपाने विज्ञापितवान् वर्तते। शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः अटिजम इत्याख्येन स्वमग्नता विकारेण पीडितानाम् बालबालिकानाम् कृते सप्तसु एव प्रदेशेषु आवासीय विद्यालयानाम् स्थापना विधास्यते इति समाश्वासयति। ह्य कैलाली जनपदस्य धनगढ़ी स्थाने आयोजिते कार्यक्रमे मन्त्री पोखरेला अटिजम इत्याख्येन स्वमग्नता रोगेण पीडितानाम् बालबालिकानाम् स्वास्थ्य शिक्षायाः कृते सर्वकारः गभीरोऽस्ति। एतदर्थम् सर्वकारेण वित्तस्य विनियोजनम् च विहितम् वर्तते इति असूचयत्। मन्त्री पोखरेला अटिजमित्याख्येन स्वमग्नता रोगेण सम्बद्धा नीति नूतन शिक्षा अधिनियमे समावेक्ष्यते इति च समाश्वासयन् अस्याः समस्यायाः समाधानाय सर्वकारीय निकायैः सर्वकारीयेतर निकायैश्च सहकार्यम् कृत्वा अग्रे वर्धनाय मन्त्री पोखरेलः बलम् दत्तवान्। बारा जनपदस्य सिमरा स्थाने बलात्कारस्य पश्चात् घातितायाः त्रिवर्षीय बालिकायाः पितृभ्याम् सह गृहमन्त्रालये विमर्शनम् सम्भूतम् वर्तते। पञ्चदिनानि यावद् आन्दोलनम् विहितम् सदपि स्थानीय स्तरे वार्तायाः सम्भावना नाभूदिति उक्त्वा मृतायाः बालिकायाः पितृभ्याम् सहित समूह गृहमन्त्रिणा सुदन गुरूङ इत्यनेन सह वार्ताम् कर्तुम् इह सिमरा स्थानात् काष्ठमण्डपम् प्राप्तोऽस्ति। घटनायाम् संलग्नतायाः आरोपे पीडित परिवारेण अधुनावधि षण्णाम् जनानाम् विरुद्धे विरोध निवेदनम् पञ्जीकारितम् वर्तते। बालिकायाः हत्यायाः विरोधे स्थानीयैः अद्यापि वीरगंज पथलैया मार्गखण्डे अवरोधः विहितोऽस्ति। एतत्पूर्वम् गत बृहस्पतिवासरे स्थानीय प्रशासनस्य राजनीतिक दलानाम् प्रतिनिधीनाम् जितपुर सिमरा उपमहानगरपालिकायाः प्रतिनिधीनाम् च उपस्थितौ आन्दोलनरतपक्षेण सह सम्भूतायाम् पञ्चसूत्रीय सहमतौ बालिकायाः परिवारेण स्वस्य सहभागिता सहमतिश्च न वर्तेते इत्युक्त्वा आन्दोलनाय नैरन्तर्यम् प्रदीयमानास्ति। अत्रान्तरे गृहमन्त्रिणा सुदन गुरूङ इत्यनेन जघन्यापराधम् रोद्धुम् सुदृढ विधिगत व्यवस्थाम् कर्तुम् सर्वकारः प्रतिबद्धोऽस्तीति उक्तम् वर्तते। त्रिवर्षीय बालिकायाम् विहितेन जघन्यापराधेन आत्मनि दुःखम् अनुभूयमानमस्तीति भाषमाण गृहमन्त्री गुरूङ घटनायाम् विधिना निर्धारितस्य अधिकतम न्यायस्य सुनिश्चयनाय सर्वकारः प्रतिबद्धोऽस्तीति सामाजिक सञ्जाले उल्लिखितवान् वर्तते। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मंत्री प्रतिभा रावल भूमि सम्बद्ध समस्यानां समाधानस्य विषय सर्वकारस्य उच्चैः प्राथमिकतायाम् अस्तित्यतः एतदनुसारेणैव स्थानीय स्तरेण सहयोगो विधातव्य इति उक्तवती वर्तते। कैलाली जनपदस्य धनगढ़ी उपमहानगरपालिकायां ह्य आयोजिते कार्यक्रमे भूमिमन्त्री रावल अव्यवस्थितावासानां भूमिहीनानां च कृते भूस्वामित्व प्रमाणपत्रस्य वितरणाय आवश्यक सहजीकरणाय समन्वयाय च सर्वकार पूर्णतः तत्परोऽस्तीति अवोचत। तत्पूर्वं कैलाली जनपदस्य भूमि समस्या समाधान समितेः उपवेशे भूमिमन्त्री रावलः षण्णां शतस्य दिनानाम् अभ्यन्तरे भूस्वामित्व प्रमाणपत्राणां वितरणस्य कार्यस्य सम्पादनत्वेन सर्वकारेण कार्यं विद्यमानम् अस्तीति ज्ञापयन्ती जनपदस्य सर्वासु पालिकासु विद्यमानायाः अस्याः समस्यायाः समाधानाय सहजीकरणं विधातुं समितिम् अनुरुद्धवती। प्रधान न्यायाधीश डाक्टर मनोज कुमार शर्मा गदति न्यायस्य शीघ्र सम्पादनाय न्यायालयस्य मुख्यं ध्यानं सम्प्रति केन्द्रितं वर्तते। प्रधान न्यायाधीश डाक्टर शर्मा ह्य पोखरा बागलुङ न्यायपीठस्य प्राप्ते क्रमे शीघ्र न्याय व्यवस्थाया सम्पादनाय प्रविधिम् आत्मसादकृत्य अग्रे न्यायालयः वर्धितोऽस्तीति असूचयत्। न्यायस्य शीघ्र सम्पादनेनैव जनतायाः आशा विश्वासश्च न्यायालयं प्रति वर्धेते इत्यतः प्राचीन न्याय प्रकरणानि शून्यावस्थायाम् आनेष्यन्ते एवेति तदवदो प्रधान न्यायाधीश डाक्टर शर्मा प्रतिबद्धतां व्यक्तवान्। ऊर्जा जलस्रोत सेचन मन्त्री विराज भक्त श्रेष्ठ कथयति कोशी प्रदेशस्य विद्युदापूर्ति प्रणालीम् अतिरिक्त व्यवस्थितां सबलां सुदृढां प्रभावकारिणीं च विधाय विद्युतः व्ययं वर्धयितुं ध्यानं प्रदातव्यम्। कोशी प्रदेशस्य भ्रमणस्य क्रमे नेपाल विद्युत प्राधिकरणस्य प्रादेशिक वितरण कार्यालयस्य प्रमुखेण कर्मचारिभिः जनप्रतिनिधिभिश्च सम्बद्ध निकायानां प्रतिनिधिभिश्च सा ह्यो विहिते विमर्शने मन्त्री श्रेष्ठ विद्युदापूर्तौ दृष्टाः समस्याः स्थानीयवासिनां वेदनाः कर्मचारिणां समस्याश्च परिचित्य तत्कालमेव समाधातुं निर्दिष्टवान् इति मन्त्रिणः श्रेष्ठस्य सचिवालयेन ज्ञापितं वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भासते व्यक्तिगत स्वार्थात् दोषारोपणाच्च उपरि उत्थाय देशस्य दलस्य च हिताय चिन्तनस्य समय प्राप्तोऽस्ति। नेकपा एमाले जन संघटना समन्वय संयन्त्रेण ह्यो भक्तपुरे आयोजिते कार्यक्रमे अध्यक्षः ओली एवम् अवोचत् इति समाचाराः।